स्वर्णकान्ति समायुक्ता दिव्यस्वर्णस्वरूपिणी भक्ताभीष्टकरीं वन्द्या गङ्गादेवीमुपास्महे सिन्धुपुत्रीं रमादेवीं सर्वचित्तापहारिणीं ज्ञानदात्रीं समाराध्या गङ्गादेवीमुपास्महे ज्ञानदात्रीं समाराध्या गङ्गादेवीमुपास्महे स्वर्णवर्णा महादेवी स्वर्णसौधविनाशिनी स्वर्गदात्रीं दयापूर्णा गङ्गादेवीमुपास्महे दिव्यरूपधरां देवी लोकानुग्रहकारिणी दिव्यलोकप्रदां गङ्गा गङ्गादेवीमुपास्महे दिव्यलोकप्रदां गङ्गा गङ्गादेवीमुपास्महे स्वर्गलोकसमुद्भूता श्रीमन्नगरनायिका यशोज्ञानप्रदात्रीं ता गङ्गादेवीमुपास्महे दिव्याम्बरधरां देवी दिव्यचन्दनलेपिता दिव्यशक्तिप्रदां देवी गङ्गादेवीमुपास्महे दिव्यशक्तिप्रदां देवी गङ्गादेवीमुपास्महे सर्वकालसमाराध्या सर्वारिष्टविनाशिनी सर्वाघकुलसंहर्त्री गङ्गादेवीमुपास्महे पद्मपत्रस्थितां पुण्या पद्मपुष्पैः सुपूजिताम् नारायणाश्रितां लक्ष्मी गङ्गादेवीमुपास्महे नारायणाश्रितां लक्ष्मी गङ्गादेवीमुपास्महे
गङ्गाष्टकमिदं नित्यं यः पठे शृणुयादपि गङ्गामातृकृपां प्राप्य सिद्धिमाप्नोति सर्वदा।